आलापः।
अहं तं स स अयम् इयम् अ अस्मिन् असि मां त्वां तं तं इमम् इमां अं पृच्छवद मया तोया तेन तया इनया न किं कृतं मह्यं तुभ्यं तस्मै तस्य आययिने देहि नमः तस्य आत्या न परं वद मम तव तस्य तस्य स्यः न नाम वद मत्त्वस्य तस्य उ ए ओ किमिच्छसि मयि त्वयि तस्मिन् तस्याम् ओ याम्नि ज्वलत्यग्नि
वाक्यानि रचयति अनामिके त्वं कथय
अहम् अनामिका त्वं प्रगति त्वं मां जानासि अहं त्वां जानामि त्वं मया सह खेलसि अहं त्वया सह खेलामि त्वं मह्यम् उपहारं ददासि अहं तुभ्यम् उपहारं ददामि त्वं मत् उपहारं प्राप्नोसि अहं त्वत् उपहारं प्राप्नोमि त्वं मम नाम जानासि अहं तव नाम जानामि तव मयि विश्वासः अस्ति मम त्वयि विश्वासः अस्ति
अति सुन्दरं रोहित त्वम् एतैः वाक्यानि कुरु
सः बालकः का अस्ति सा बालिका का अस्ति अयं बालकः का अस्ति इयं बालिका का अस्ति
शोभनं प्रगते त्वं वद जानामि
अहं तं बालकं जानामि अहं तां बालिकां जानामि अहम् इमं बालकं जानामि अहम् इमां बालिकां जानामि
विक्रम त्वम् एतैः वाक्यानि रचय किं कृतं
तेन बालकेन किं कृतं तया बालिकया किं कृतम् अनेन बालकेन किं कृतम् अनया बालिकया किं कृतम्
सुष्ठु शिवानी समानवाक्यानि पुनः वद सह खेलामि
अहं तेन बालकेन सह खेलामि अहं तया बालिकया सह खेलामि अहम् अनेन बालकेन सह खेलामि अहम् अनया बालिकया सह खेलामि
अति सुन्दरं प्रवीणः त्वं वद ददामि
अहं तस्मै बालकाय ददामि अहं तस्यै बालिकायै ददामि अहम् अस्मै बालकाय ददामि अहम् अस्यै बालिकायै ददामि
शोभनम् अनामिके त्वं वद किं रोचते
तस्मै बालकाय किं रोचते तस्यै बालिकायै किं रोचते अस्मै बालकाय किं रोचते अस्यै बालिकायै किं रोचते
सुन्दरम् इदानीं स्नेहे तव वारः दूरं तिष्ठ
तस्मात् बालकात् दूरं तिष्ठ तस्याः बालिकायाः दूरं तिष्ठ अस्मात् बालकात् दूरं तिष्ठ अस्याः बालिकायाः दूरं तिष्ठ
अति सुन्दरं शिवानी त्वं वद नाम किं
तस्य बालकस्य नाम किं तस्याः बालिकायाः नाम किम् अस्य बालकस्य नाम किम् अस्याः बालिकायाः नाम किम्
शोभनम् अन्तिमं कः वदति
अस्तु
स्नेहे त्वं पुनर्वद देशभक्तिः अस्ति
तस्मिन् बालके देशभक्तिः अस्ति तस्यां बालिकायां देशभक्तिः अस्ति अस्मिन् बालके देशभक्तिः अस्ति अस्यां बालिकायां देशभक्तिः अस्ति
अतीव साधु अरे समयः जातः श्लोकेन समाप्नुयाम अमृते त्वम् आरम्भं कुरु सुन्दरं पुनर्दर्शनाय